एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वकारस्य आन्दोलनरतस्य नेपाल शिक्षक महासंघस्य च मध्ये षड्सूत्रीया सहमतिर्धृता वर्तते। गृह मन्त्रालये ह्य सर्वकारस्य शिक्षक प्रतिनिधिनाम् च मध्ये उपविष्टे उपवेशे संघीय संसदि पञ्जीकारिते विद्यालय शिक्षा सम्बद्धे विधेयके समाविष्टासु व्यवस्थासु संविधानस्य अप्रतिकूलतया महासंघस्य याचनानाम् अधिकतम सम्बोधनाय सर्वकारेण सहजीकरण सम्पादनत्वेन सहमति धृतेति संचार सूचना प्रविधि मन्त्री नेपाल सर्वकारस्य प्रवक्ता च रेखा शर्मा संचारकर्मिणः अज्ञापयन्। मन्त्री शर्मा संसदीय प्रक्रियया एव शिक्षकाणाम् याचनानाम् सम्बोधनाय सर्वकारेण सहजीकरणार्थम् प्रतिबद्धतायाः ज्ञापनानन्तरम् शिक्षकैः आन्दोलनम् प्रत्यावर्तयितुम् सहमतिर्धृतेति अवोचत। वार्तायाम् सर्वकारस्य पक्षतः उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठः, विधिमन्त्री धनराज गुरूङ, संचार मन्त्री रेखा शर्मा, शिक्षा मन्त्री अशोक राई, चेती मन्त्रीभिः सहितः समूहः शिक्षकाणाम् पक्षतः सर्वेषाम् शिक्षक संघटनानाम् अध्यक्षाः प्रतिनिधयश्च सहभागिनः आसन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते संक्रमणकालिक न्यायस्य अवशिष्ट कार्याणाम् पूरणम् नेपालस्य मुख्य राजनीतिक विषयो वर्तते। अमेरिका देशस्य न्यूयोर्क नगरे सञ्चाल्यमानाम् संयुक्त राष्ट्रसंघस्य अष्टासप्ततितमीम् महासभाम् नेपालस्य पक्षत गतदिने सम्बोधयन् प्रधानमन्त्री प्रचण्डः शान्ति प्रक्रियाया निष्कर्षम् प्रापणार्थम् सक्रियता स्थिति विश्व समुदायम् अवोधयत्। प्रधानमन्त्री प्रचण्ड द्वन्द्वस्य शान्तो रूपान्तरण कारिणीम् शान्ति प्रक्रियाम् उचितम् समर्थयितुम् अस्यै मान्यताम् दातुम् च विश्व समुदायम् अन्वरुणत्। गतदिने एव प्रधानमन्त्री प्रचण्डः न्यूयोर्क नगरे अमेरिका देशस्य राष्ट्रपतिना जो बाइडेन इत्यनेन सह मेलवार्ताम् अकरोत्। संक्षिप्त मेलनस्य क्रमे अनयोर्मध्ये पारस्परिक हितस्य विषय सहकारी सम्पादन विषयणी वार्ता सम्भूता आसीत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समिते ह्यस्तनोपवेशेपी केन्द्रीय सदस्याः स्वस्वधारणाः उपस्थापितवन्तः। सभापतेः शेरबहादुर देउवाभिदस्य सभापतित्वे दलस्य ललितपुरवर्तिनी केन्द्रीय कार्यालये उपविष्टे उपवेशे पञ्चचत्वारिंशत् केन्द्रीय सदस्याः स्वस्वधारणाः उपस्थापयन्। कार्य समितेः उपवेशः स्वपूर्वाह्नस्य नववादने पुनवस्ता। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठः धार्मिक सद्भावस्य संस्थापनार्थं धार्मिका ग्रणीजनैर्सह ह्यो गृहमन्त्रालय व्यमृशत। पश्चात्तन समय देशस्य विभिन्नेष् स्थानेष् धार्मिक सद्भावस्य विकारकारिण्या स्फुट प्रवृत्तेः दर्शनानन्तरम् उपप्रधानमन्त्री श्रेष्ठः धार्मिका ग्रणीजनैस्सह एवं विमृष्टवान्। विमर्शने उपप्रधानमन्त्री श्रेष्ठः राष्ट्रस्य एकतायै सार्वभौमिकतायै च धार्मिकी सामुदायिकी च एकता अपरिहार्य स्थिति हेतोः अग्रणी जनानाम् प्रयत्नेन समुदाये सचेष्टता विस्तार्यते इति विश्वासम् अभिव्यनक। विमर्शने सहभागिभिः हिन्दू बौद्ध मुस्लिम ख्रिष्टीय धर्मैः सम्बद्धानाम् अग्रणी संस्थानाम् प्रमुखैः धार्मिक सद्भाव धरणार्थम् संयुक्ताह्वानम् विहितम् वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः कथयति सुशासने समृद्धौ सामाजिक न्याये च आधृतम् आर्थिक रूपान्तरणम् विधेयम्। नेपाल राष्ट्रियोद्योग व्यवसायी महासंघस्य द्वितीय राष्ट्रिय महाधिवेशनस्य उद्घाटन कार्यक्रमे ह्य अध्यक्षो नेपालः राष्ट्रे विद्यमानायाः विपन्नतायाः पश्चवर्तितायाश्च न्यूनीकरणाय औद्योगिकरणस्य आवश्यकताम् प्रादर्शयत। अध्यक्षो नेपालः पश्चात्तन समये वामशक्तौ सत्तामोहस्य दर्शनेन देश विकासस्य भावनायाम् न्यूनता आगते त्यतः स्वस्व दुर्बलताः संशोधनीयाः इत्यत्र बलम् प्रादात्। अध्यक्षो नेपालः संघीय लोकतान्त्रिक गणतन्त्रस्य विरूद्धे प्रतिगामिनी शक्ति सक्रिया अस्ति इत्यतः अग्रगामी शक्त्या एकताबद्धया भाव्यमित्यत्र बलम् प्रादात्। कार्यक्रमे महासचिव घनश्याम भूषालः उद्यमिनाम् निवेशनस्य प्रतिफलम् सुनिश्चेतुम् सर्वकारेण आवश्यकम् वातावरणम् निर्मातव्यमिति उदैरयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा भासते संसारेण सह प्रतिस्पर्धनस्य क्षेत्रम् सूचना संचार प्रविधिरस्तित्यतः अत्र सर्वे सर्वैः सम्बद्ध पक्षैः विशेषेण ध्यानम् देयम्। युनियन अफ आईसीटीएस प्रोफेशनल्स नेपाल नाम्न्या संस्थया पूर्वेद्युः आयोजितम् नेपाले सबल वृत्त्युपार्जनम् आर्थिकाभिवृद्धये संचार क्षेत्रस्य सुदृढीकरण चेति विषयकम् सामाजिकम् संवादम् सम्बोधयन्ती मन्त्री शर्मा सूचना प्रविधेः विकासाय सर्वकारेण नैज क्षेत्रेण च सहैव अग्रे वर्धितुम् बलम् प्रादात्। संचार सूचना प्रविधेः विकासाय सर्वकारेण नीतेः विधेः पूर्वाधारस्य च निर्माणस्य कार्यम् विधीयते इति चर्चयन्ती मन्त्री शर्मा नैज क्षेत्रेण च अत्र क्षेत्रे निवेशनम् प्रवर्धनीयमिति बलम् प्रादात्। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत कथयति राष्ट्रिय चिकित्सा शिक्षा अधिनियमे संशोधनम् विधेयम्। राप्ती स्वास्थ्य विज्ञान प्रतिष्ठानेन इह आयोजितस्य ज्येष्ठ नागरिकाणाम् स्वास्थ्योपचाराध्यापनेन सम्बद्धस्य पाठ्यक्रमस्य विमर्शनस्य क्रमे मन्त्री बस्नेत पञ्चसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीये राष्ट्रिय चिकित्सा शिक्षा अधिनियमे दृष्टानाम् न्यूनता दुर्बलतानाम् संशोधनेन अग्रे वर्धनीयम् इति विचारम् व्यक्तवान्। मन्त्री बस्नेत स्वास्थ्य मन्त्रालयस्य राष्ट्रिय चिकित्सा शिक्षा योगस्य च प्रतिनिधिन् उपस्थाप्य अधिनियमे संशोधनीय विषयस्य प्रक्रिया अग्रे वर्धापिता स्थिति असूचयत्। बाँके जनपदस्य खजुरावर्तिनी सुशील कोइराला प्रखरार बुद्ध चिकित्सालये ह्यस्तन दिवसात् सर्वाः साधारण शय्याः निःशुल्कम् विहिताः सन्ति। चिकित्सालय विकास समितेः अध्यक्षस्य टेकेन्द्र मल्लस्य अनुसारेण चिकित्सालये प्रवेशितेभ्यः सर्वेभ्यः अतिविपन्न रोगिभ्यः निःशुल्कम् भोजनस्य च व्यवस्था विहिता अस्ति। मुष्टिदानात् प्रारब्धे सुशील कोइराला आर्बुद चिकित्सालये प्रतिवर्षम् रोगिणाम् सम्मर्दः वर्धमानोऽस्ति इत्यतः चिकित्सालये पदस्थानान्तर्गतानाम् चिकित्सकानाम् कर्मचारिणाम् च अभावस्य मुख्य समस्या वर्तते। नेपाल नागरिकोड्डयन प्राधिकरणेन त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य पार्श्ववर्ती क्षेत्रेषु पतंग ड्रोनयान वायुगोलकादीनि वस्तूनि नोड्डाययितुम् अनुरुद्धम् वर्तते। विमानस्थल क्षेत्रस्य पार्श्वभागेष् उड्डयनावतरणयोः समये भूयो भूय पतंग ड्रोनयान वायुगोलकादीनाम् वस्तूनाम् उड्डयनम् दृष्टम् येन उड्डयन सुरक्षायाम् गभीर प्रभाव सर्जनम् प्रति सचेष्टा स्थातुमनुरुध्य सूचना प्रकाशितेति प्राधिकरणस्य प्रवक्ता उपमहानिर्देशकश्च जगन्नाथ निरौला अज्ञापयत। प्राधिकरणस्य अनुरोधम् उपेक्ष्य एवं विदेशु कार्येषु विहितेषु सत्सु विध्यनुसारेण कठोरेण दण्डनम् भविष्यतीति प्रवक्ता उपमहानिर्देशकश्च निरौला अगदत। भौतिक पूर्वाधार मन्त्रिणा यातायात मन्त्रिणा प्रकाश ज्वालाभिधेन पर्वोत्सव लक्षिताय यातायात क्षेत्रस्य सुधाराय सर्वपक्षीय कार्यदलम् संघटितम् वर्तते। यातायात क्षेत्रेण सह सम्बद्धान् सर्वान् पक्षान् आहूय ह्यः मन्त्री ज्वाला विमर्शनानन्तरम् यातायात विभागस्य महानिर्देशकस्य उद्धव रिजालस्य नेतृत्वे कार्यदलमिदम् समघटयत् इति समाचाराः।